ॐ श्रीगुरुभ्यो नमः हरिः ॐ गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नूतिभिः सेदसादनम् श्रीमहागणपतये नमः गुरवे सर्वलोकानां भिषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेन देवो याति भुवना विपश्यन् आदित्याय नमः अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् अग्नये नमः येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् निष्क्रीतोऽयं यज्ञियं भागमेतुराय स्पोषा यजमानस्य सन्तु पशुपतये नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते आदित्याय नमः अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागुम्रेतागुंसि जिन्वती अङ्गारकाय नमः स्योना पृथिवी भवान् ऋक्षरा निवेशनी यच्छानः शर्म सप्रथाः पृथिव्यै नमः क्षेत्रस्य पतिना वयगुंहितेनेव जयामसि गामश्वं पोषयित्वासनो मृडातीदृशे क्षेत्रस्य पत्यै नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते अङ्गारकाय नमः प्रवशुक्राय भानवे भरद्वगुं हव्यं मतिं चाग्नये सुपूतम् यो दैव्यानि मानुषा जनूगुष्यन्तर्विश्वानि विद्मना जिगाति भगवते शुक्राय नमः इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् न ह्यस्य अपरं च न जरसामरते पतिः इन्द्राण्यै नमः इन्द्रम्बो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः इन्द्राय नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य संगते सोमाय नमः अप्सु मे सोमो अब्रवीदं तर्विश्वानि भेषजा अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः अद्भ्यो नमः गौरीमिमाय सलिला नितक्षप्त्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुषि सहस्रा अक्षरा परमे व्योमन् गौर्यै नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमाय नमः उद्बुद्ध्यस्वाग्ने प्रतिजागृह्ये नमिष्टा पूर्ते सगुं सृजेथा मयञ्च पुनः कृण्वग्स्त्वा पितरं युवानमन्वातागुंसीत्वयितन्तु मेतम् बुधाय नमः इदं विष्णुर्विचक्रमे त्रेधानि दधे पदं समूढमस्य पागुं सुरे विष्णवे नमः विष्णोरराटमसि विष्णोः पृष्ठमसि विष्णोस्नप्त्रेस्थो विष्णोस्योरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा नारायणाय नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधाय नमः बृहस्पते अतियदर्यो अर्हाद्युमद्दिभाधिक्रतुमज्जनेषु यद्दीदयच्छवसर्तप्रजा तदस्मासुद्रविणं देहि चित्रम् बृहस्पतये नमः इन्द्रमरुत्व इह पाहि सोमं यथा शार्याते अपि वस्सुतस्य तव प्रणीति तव शूरशर्मन्ना विवासन्ति कवयस्सु यज्ञाः इन्द्राय मरुत्वते नमः ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवह स बुद्ध्रिया उपमा अस्य विष्ठा सतश्च योनिमसतश्च विवह ब्रह्मणे नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृहस्पतये नमः शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः शनैश्चराय नमः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्स्यामपतयोरयीणाम् प्रजापतये नमः इमं जमप्रस्तरमाहि सीदाङ्गिरुभिः पितृभिः संविधानः आत्वा मन्द्राः कविशस्तावहन्त्वे नाराजन् हविषामादयस्वा यमाय नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्चराय नमः कयानश्चित्र आभुवदूती सदा वृधः सखा कया शचिष्ठया भृता राहवे नमः आयङ्गौः पृश्निरक्रमीदसनन् मातरं पुनः पितरं च प्रयन्सुवः सर्पेभ्यो नमः यत्ते देवी नररतिरा बबन्धदामग्रीवा स्वविचर्त्यम् इदं ते तद्विश्याम्यायुषो न मध्या दधा जीवः पितुमद्धि प्रमुक्तः निरृते नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे समुषद्भिरजायथाः केतुभ्यो नमः ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणां श्येनो गृध्राणागस्वधितिर्वनानागुं सोमः पवित्रमत्येतिरेभन्ने ब्रह्मणे नमः सचित्रचित्रं चितयं तमस्मे चित्रक्षत्रचित्रतमं वयोधां चन्द्रं ब्रयिं पुरुवीरं बृहन्दं चन्द्रचन्द्राभिर्गृणते युवस्व चित्रगुप्ताय नमः अधिदेवता प्रत्यधिदेवता सहिताय भगवते केतुभ्यो नमः आदित्यादिनवग्रहदेवताभ्यो नमः अधिदेवता प्रत्यधिदेवता नक्षत्रदेवता वरुणदेवता सहितेभ्यो नमः उद्यन्नद्यमित्रमहः आरोहन्युत्तरां दिवम् हृद्रोगं मम सूर्य हरिमाणं च नाशय सुकेषु मे हरिमाणं रूपणाकसुदध्वसि अथो हरिद्रवेषु मे हरिमाणं निदध्वसि उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तं ममरं धयन्ने मो अहं द्विषतो रथं मित्ररविसूर्यभानुखगपूष्णहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आयुष्टे विश्वतो दधदयमग्निर्वरेण्यः पुनस्ते प्राण आयति परा यक्ष्मगुं सुवामिते आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयो निरेधि घृतं पीत्वा मधुचारुगव्यं पितेव पुत्रमभिरक्षता दिमम् आयुर्देवतायै नमः अपमृत्युमपक्षुधमपेतशपथं जहि अथानो अग्न आवहराय स्पोषगं सहस्रिणम् एते सहस्रमयुतं पाशा मृत्योमर्त्यायहं तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा अपमृत्युहरदेवतायै नमः छाया सुवर्चला देवी समेत श्रीसूर्यनारायणस्वामिने नमः ॐ नमो नारायणाय ॐ हरिः ओ